गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वर गुरु साक्षात परब्रह्म तस्मै श्री गुरवे नमः।
महोदय ध्वनि बहु मंदम अस्ति।
सर्वेषां कृते एतादृशः अस्ति वा अथवा?
आं भवान् तथा एव।
आं महोदय
इदानीं
किञ्चित् मन्दमस्ति।
किञ्चित् मन्दमस्ति वा इदानीं?
इदानीं श्रूयते महोदय।
इदानीं
श्रूयते।
मन्दम् अस्ति महोदय, उच्चैः वदतु चेत् सम्यक्।
उच्चैः एव वदामि किन्तु अस्तु, हा प्रयत्नं करोमि। अस्तु तर्हि तत्र सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र सामान्यम्, अपि तत्र विशेषः इति अस्मिन् विषये। तत्र यद् वयं गतवर्गे पठितवन्तः तम् आदाय अद्य तत्र धनश्री भगिन्याः उपस्थापनं वर्तते, अतः धनश्री भगिनी कृपया।
आं महोदय श्रूयते?
श्रूयते भगिनी।
नमः सर्वेभ्यः। गते सप्ताहे वयं परमपरं चेति द्विविधं सामान्यम् इति अग्रे अधीतवन्तः। सत्ता इति जातिः अस्ति या गुणेषु द्रव्येषु कर्मसु च वर्तते। सत्तायाः अधिकदेशवृत्तिः अस्ति, नाम सर्वेषां जातीनाम् अपेक्षया सा अधिकेषु पदार्थेषु वर्तते, अतः सा परा जाति इति उच्यते। जातयोर्मध्ये तुलना कर्तुं परम् अपरम् इति पदौ उपयुञ्जामहे। यस्याः अधिकरणानि न्यूनानि सा अपरा इति उच्यते। उदाहरणं सत्ता द्रव्यत्वम्, अनयोर्मध्ये सत्तायाः अपेक्षया द्रव्यत्वम् अपरं, द्रव्यत्वमपेक्षया सत्ता परम्। अनन्तरं पृथिवीत्वं घटत्वम्, अनयोर्मध्ये पृथिवीत्वम् अपेक्षया घटत्वम् अपरम्, घटत्व अपेक्षया पृथिवीत्वं परम्। अत्र सत्ता सर्वदा परा एव, घटत्वादि सर्वदा अपरम् एव, द्रव्यत्वं पृथिवीत्वं कदाचित् परं कदाचित् अपरं भवितुं शक्यते। अनन्तरं नित्यद्रव्यवृत्तयोर्विशेषा विशेषाः तु अनन्ता एव इति वाक्यं वयम् अधीतवन्तः। कर्मणः विषये एकमतं नास्ति। केचन आचार्याः कर्म इति भिन्नं पदार्थम् अस्ति इति न मन्यते। विशेषः इत्यपि केवलं वैशेषिकैः नैयायिकैः च अङ्गीक्रियते। अतः पूर्वं सर्वजनसिद्धाः पदार्थाः नाम द्रव्यगुणसामान्यं च निरूपिताः, विशेषः तु सर्वजनसिद्धाः पदार्थानन्तरं निरूपितः। अत्र विशेषस्य कृते उदाहरणमस्ति, तद्वयम् अधीतवन्तः। यदि एकस्य शकलस्य खण्डद्वयं वयं कुर्मः, तयोः एकं खण्डं गृहीत्वा पुनः खण्डद्वयं कुर्मः, एवं परम्परा तावत् कर्तुं शक्यते यावत् पुनः खण्डद्वयं न कर्तुं शक्नुमः। तत् परमं शकलं नाम अन्तिमं शकलम् एव परमाणुः। पाषाणखण्डयोर्मध्ये भेदं ज्ञातुं वयम् अवयवभेदाः पाषाणखण्डयोर्मध्ये वयम् अवयवभेदज्ञातुं शक्नुमः, यतोहि अवयवभेदात् अवयवीभेदः सिद्ध्यते। परन्तु परमाणोः अवयवाः न सन्ति, तेषु भेदः ज्ञातुं कणादमहर्षिणा विशेषः इति पदार्थः स्वीकृतः। परमाणवः अनन्ताः, अतः विशेषाः अपि अनन्ताः। यथा एकस्मिन् आत्मनि एकः मनः अस्ति, तथैव प्रत्येकस्मिन् परमाणौ एकः विशेषः, तथैव अन्येषु नित्यद्रव्येषु नाम आकाशे काले दिशि आत्मनि मनसि चापि अवयवाः न सन्ति, अतः तेषु भेदं ज्ञातुमपि वयं विशेषपदार्थस्य उपयोगं कुर्मः। नित्यनाम यस्य उत्पत्तिः अन्तः च नास्ति ते नित्यद्रव्याः अनन्तरं वयं समवायसाधनप्रकारः इति आरब्धवन्तः समवायस्तु एकम् एव अस्माभिः प्रथमम् उदाहरणं दृष्टवन्तः पूर्वं स्वस्थानस्थितौ विविक्तौ नाम भिन्नस्थाने स्थितौ हस्तौ अस्ति यदा नमस्कारेच्छा भवति तदा स्वस्थानस्थितौ हस्तौ स्थानं त्यक्त्वा परस्परं संयोगः कुरुतः एतावत्पर्यन्तं वयम् अधीतवन्तः धन्यवादः
धन्यवादः भगिनी समीचीनम् उत्तममस्ति धन्यवादः अतः तत्र सर्वेषां कृते तत्र पुनस्मरणं जातम् इति तत्र गतवर्गे किं कृतम् इति अस्तु धन्यवादः भगिनि अतः तत्र इदानीम् अग्रे गन्तुं शक्नुमः तत्र अद्यतनविषयः अस्ति तत्र समवायः कः इति किन्तु तस्मात् प्राक् के तत्र किञ्चित् वक्तव्यः अस्ति अत्र नाम तत्र अवयवः अपि तत्र तस्मिन् विषये तत्र परमाणोः अवयवः न सन्ति अपि तत्र परमाणोः अन्यः तत्र किञ्चित् विशेष अंशः अपि अस्ति नाम तत्र परमाणुः ये अस्ति तत्र वयं साधारणतया तत्र पटः अस्ति इति स्वीकुर्मः पटः इति तत्र कः जानाति पटः नाम किम् पटः नाम
वस्त्रं
हा तत्र पटे किमस्ति पटं केन निर्मितम् अथवा कैः निर्मितः पटः
पटत्वं
न तत्र जातिः न तत्र तन्तवः तत्र तन्तवः उपयुज्य वयं वस्त्रम् अथवा पटस्य निर्माणं कुर्मः इदानीं वयं साधारणतया किं वदामः तत्र वस्त्रे अथवा पटे तन्तवः सन्ति इति वदामः खलु वस्त्रमस्ति वस्त्रे तन्तवः सन्ति इति वदामः किन्तु नैयायिकाः तद् न अङ्गीकुर्वन्ति ते नाम वयं चिन्तयामः तत्र पटः अस्ति पटे तन्तवः सन्ति अतः पटः किं भवति अधिकरणम् अपि तन्तुषु किं भवति यदि अधिकरणम् अस्ति अधिकरणता अस्ति पटे तत्र यथा अस्ति इति चिन्तयामः वयं किन्तु ते तादृशं तेषां चिन्तनं तादृशं नास्ति ते तेषां चिन्तनम् अस्ति तत्र तन्तुषु पटः अस्ति नाम तन्तुषु अधिकरणता अस्ति अपि पटे अधीयता अस्ति किमर्थम् एतादृशं चिन्तनं तेषाम् इत्युक्ते तत्र यदि तत्र पटः नास्ति किन्तु तन्तवः भवितुम् अर्हन्ति खलु खलु द्रव्यमस्ति द्रव्ये गुणः अस्ति इति स्वीकुर्मः द्रव्यमस्ति द्रव्ये गुणः अस्ति इदानीं तत्र गुणः नास्ति चेदपि द्रव्यं भवितुम् अर्हति खलु न तत्र इदानीं किमपि गुणम् अस्ति तदनन्तरं तत्र गुणं गच्छति किन्तु द्रव्यं तिष्ठति इति तादृशं तत्र अधिकरणं तिष्ठति आदेयः यः अस्ति तद् गच्छति इति अस्ति चेदपि तत्र अधिकरणम् इति पदार्थः तत्तु तिष्ठति खलु किन्तु यदि तत्र द्रव्यं नास्ति गुणः कुत्र भवितुम् अर्हति वा न यतोहि गुणः अस्ति चेत् तस्य अधिकरणम् आवश्यकम् अस्ति द्रव्यं विना तत्र गुणः कुत्रापि न भवितुम् अर्हति गुणस्य अधिकरणम् आवश्यकं तथैव तत्र तन्तुः तन्तवः सन्ति पटं विना तन्तवः भवितुम् अर्हन्ति किन्तु तन्तवः न सन्ति चेत् पटः न भवितुम् अर्हति तत्र पटः नास्ति एव अतः तेषां चिन्तनम् अस्ति तत्र तन्तवः तन्तुषु अधिकरणता अस्ति पटे आधेयता अस्ति एतत् महत्त्वपूर्णविषयः अस्ति. हा तत्र किञ्चित् चिन्तनं तस्मिन् विषये कुर्वन्तु, नाम तत्र फौण्डेशन् तत्र तन्तवः सन्ति विना तन्तवः न सन्ति चेत् तत्र पटः न भवितुम् अर्हति. तथैव वयं साधारणतया चिन्तयामः द्रव्यमस्ति, द्रव्ये परमाणवः सन्ति इति चिन्तयामः, किन्तु ते वदन्ति न, परमाणवः सन्ति परमाणुषु द्रव्यं भवति, नाम परमाणुषु अधिकरणता एव भवति, परमाणुषु आदेयता कदापि न भवति. तादृशचिन्तनमेव तत्र आकाशे नित्रद्रव्येषु आदेयता कदापि न भवति, अधिकरणता एव, तत्र काल दिक् आकाशः तत् सर्वदा अधिकरणमेव भवति, तेषु आदेयता कदापि न भवितुम् अर्हति इति तेषां चिन्तनम्. अतः द्रव्यं तत्र किमपि घटं स्वीकरोतु, घटस्य परमाणवः ये सन्ति तत्र परमाणुषु तत्र अधिकरणता अस्ति, घटे आदेयता अस्ति, परमाणुषु घटम् अस्ति, तत्र सप्तमी तत्र तत्र अधिकरणम् अधिकरणं सूचयितुं तत्र वयं सप्तमी विभक्तेः प्रयोगं कुर्मः, तत्र परमाणुषु अधिकरणं तत्र तेषु घटः अस्ति, तत्र अधिकरणता सर्वदा परमाणुषु आदेयता वस् घटः वा पटः वा तेषु आदेयता भवति इति तेषां चिन्तनम्. अस्तु, इदानीं तत्र अग्रे सरामः. तत्र वयम् इदानीं तत्र पदार्थानां तत्र पठनं कृतवन्तः. इदानीं सम्बन्धः इति तत्र एषः विषयः अपि महत्त्वपूर्णविषयः तत्र न्यायशास्त्रे. तत्र एकपदार्थः अस्ति अन्यस्मिन् पदार्थे अस्ति केन सम्बन्धेन अस्ति इति विचारः तत्र भवति. अतः इदानीं तत्र समवायः इति पदार्थः अस्ति, तस्य एषः समवायसम्बन्धः तत्र सर्वत्र भवति. अतः तत्र तस्य परिचयः इदानीं कुर्मः. तत्र पूर्वस्मिन् वर्गे तत्र एकं परिच्छेदम् अस्माभिः पठितं, किन्तु अस्माभिः पठितः एकः परिच्छेदः अस्माभिः पठितः, किन्तु तमेव पुनः एकवारं पठित्वा अग्रे सरामः तर्हि. अस्तु, तर्हि तत्र उपेन्द्रमहोदय पठितुम् इच्छति वा?
आचार्यजी, आचार्यजी नमस्ते. आचार्यजी
नमस्कारः. तत्र पुटसङ्ख्या अस्ति चतुर्दश, तत्र समवायः तदारभ्य
समवायसाधनत्वे एव इति तस्मात् आरभ्य आचार्य.
अस्तु अस्तु, तद् करोतु.
इत्थं हि समवायसाधनम् आहुः. कश्चित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः, ततः पुरुषस्य नमस्कारेच्छा भवति, ततः हस्तयोः क्रियायाः तयोः संयोगः
क्रियया
सोरि आचार्य ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. एवं च पूर्वं विविक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः.
तावत्पर्यन्तम् अस्तु.
अत्र समवायसाधनं कथम् इति वक्तुम् इच्छति आचार्यः. एकः कश्चन एकः पुरुषः अस्ति, तस्य हस्तौ स्वस्थानस्थितौ स्वस्थान यथास्थानं
साधारणरीत्या अस्माकं
साधारणरीत्या
हस्तौ एकस्मिन् पक्षे, अन्यः हस्तः अन्यस्मिन् पक्षे भवति.
ततः पुरुषस्य नमस्कार इच्छा भवति. यदा नमस्कार इच्छा भवति ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. इच्छा अनन्तरं हस्तयोः क्रियया संयोगं
न, क्रिया हस्तयोः क्रियया नाम तत्र माध्यमम् येन तत्र क्रियया तत्र क्रिया नाम तत्र हस्तः माध्यमेन तत्र हस्तः एकः हस्तः अन्यहस्तस्य समीपम् आगच्छति खलु तत्र परस्परसामीप्यं भवति हा तदनन्तरं
पूर्वं भिन्नः सन्ति स्तः इच्छानन्तरं संयोगः
तत्र साक्षात् स्पर्शः अस्ति खलु तत्र हस्तयोः मध्ये
एवं च पूर्वं विविक्तौ हस्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तः भवतः अधुना संयुक्तौ भवतः नमस्कारः
समीचीनं तत्र पूर्वं कीदृशौ हस्तौ स्तः
भिन्नस्थानस्थितौ हस्तः स्वस्थानस्थितौ
विविक्तौ तत्र स्पर्शः नास्ति भिन्नभिन्नस्थानेषु ते आसन् किन्तु इदानीं तत्र हस्तौ संयुक्तौ भवतः तत्र यदा नमस्कारं कुर्मः तादृशी परिस्थितिः इदानीम् अस्ति तत्र हस्तौ संयुक्तौ इति वदामः इदानीं तत्र प्रश्नः उच्यते हस्तः संयुक्तौ इदानीं सन्ति पुनः विविक्तौ भवितुम् अर्हन्ति वा तत्र सत्यं खलु अतः तत्र एषः तत्र सम्बन्धः वयं वदामः संयोगसम्बन्धः इति संयोगसम्बन्धस्य तत्र संयुक्तौ हस्तौ भवति भवतः तदनन्तरं विविक्तौ हस्तौ अपि भवतः तत्र तद्वियोगः इति वदामः तत्र संयोगः अस्ति संयोगस्य वियोगः अपि भवितुम् अर्हति अतः तत्र हस्तौ संयुक्तौ स्तः इदानीं किन्तु पुनः तत्र भिन्नं भिन्नस्थानेषु भवितुम् अर्हन्ति तत्र अतः तत्र विविक्तौ हस्तौ अपि भवितुम्
अर्हन्ति
एषः सम्बन्धः अस्ति
संयोगसम्बन्धः
इति वदामः तत्र इदानीं तत्र संयोगसम्बन्धः तत्र द्रव्ययोः मध्ये एव भवति नाम तत्र पुस्तकम् उत्पीठिकाया
पुस्तकायाः
उपरि अस्ति हा तत्र वयं वदामः तत्र सम्बन्धः अस्ति संयोगसम्बन्धः यतोहि तत्र पृथक् कर्तुं शक्नुमः इति अस्ति समीचीनं धन्यवादः उपेन्द्रमहोदय अस्तु अग्रे
धन्यवादः नमस्ते
प्रतिमा भगिनी अग्रे पठितुम् इच्छति वा
प्रयत्नं करोमि परन्तु घटोत्पत्ति यत्र भवति तत्र कपालद्वयसंयोगानन्तरम् एवं कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः कपालः अन्यत्र ततः कपालद्वयसंयोगानन्तरम् उभयोः अपि सम्बन्धः
इति प्रश्नः अत्र कपालः इति कः इति जानाति वा भगिनि
नो न जाने
कुलालः इति इत्युक्ते यः घटं निर्माति
ओके
कुलालः नाम यः घटं निर्माति पूर्वस्मिन् काले तत्र किं कुर्वन्ति तत्र कपालद्वयं नाम घटस्य अर्धभागं तस्य नाम कपालः इति अस्मिन् शरीरे यः कपालः अस्ति सः न तद् सः भिन्नः अत्र घटस्य अर्धभागं तत्र तस्य नाम अस्ति कपालः कपालद्वयं तस्य निर्माणं कृत्वा तदनन्तरं तस्य मेलनं कृत्वा घटस्य निर्माणं भवति अतः कपालद्वयं कपालद्वयस्य संयोगसम्बन्धेन तत्र किं भवति घटस्य निर्माणं भवति तत्र कपालम् एकं कपालम् अन्यत् कपालं स्वीकृत्य तत्र संयोगं तत्र परस्परस्पर्शं कृत्वा तदनन्तरं तत्र किञ्चित् जलस्य किमपि आनयनेन तत्र साक्षात् घटस्य निर्माणं भवति
निर्माणं भवति
इदानीं तत्र तत्र घटोत्पत्ति इति अत्र कपालद्वयम् अपि संयोगम् अतः तत्र इदानीं तत्र संयोगः इति वयं ज्ञातवन्तः खलु तत्र हस्तौ हस्तयोः मध्ये संयोगः संयोगः कीदृशसम्बन्धः तत्र वियोगः अपि भवितुम् अर्हति तत्र संयोगः इदानीं सम्बन्धः अस्ति किन्तु पदार्थद्वयं यदस्ति तस्य तत्र कृत कर्तुं शक्नुमः यदि इच्छामः तत्र संयोगः इति वदामः खलु तत्र हस्तौ इदानीं संयुक्तो भवतः किन्तु पृथक् कर्तुं शक्नुमः खलु हस्तौ प्रतिमा भगिनि तत्र नमस्कारसमये हस्तौ संयुक्तो भवतः किन्तु तदनन्तरं विविक्तौ भवतः खलु तत्र नाम किन्तु
घटोत्पत्तिसमये
इदानीं तत्र परन्तु समीचीनम् इदानीं तत्र पदं पठित्वा चिन्तयतु भगिनि घटोत्पत्ति यत्र भवति
तत्र कपालद्वयसंयोगानन्तरम् एवं कदाचित् भवेत् वा यद् घट अन्यत्र स्थित कपाल अन्यत्र
हा इदानीं तत्र कपालद्वयम्
एतत् न भवति एतत् न भवति
एतत् न भवति खलु तत्र कपालद्वयम् अस्मिन् प्रकोष्ठे अस्ति अपि घटः अन्यस्मिन् प्रकोष्ठे अस्ति इति वक्तुं शक्नुमः वा
न
वयं कपालद्वयं स्वीकृत्य घटं घटस्य निर्माणं कृतवन्तः तदनन्तरम् एतद् वयं वक्तुं शक्नुमः वा तत्र घटः अन्यत्र अस्ति कपालद्वयम् अस्ति इति न खलु न अतः तत्र कपालद्वयसंयोगानन्तरं तत्र तत्र कपालद्वयस्य संयोगानन्तरं तत्र कपालद्वयमस्ति घटः अस्ति तयोः मध्ये कीदृशसम्बन्धः भवेत् इति प्रश्नः इति तत्र तत् कीदृशः सम्बन्धः भवेत् इति प्रश्नः अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे तत्र सावित्री भगिनी पठितुम् इच्छति वा ओ एकनिमिषः सुधा भगिनी क्षम्यतां भवती एव तत्र आरम्भं करोति इति चिन्तनमासीत्
क्षम्यतां भगिनी महोदय भगिनी
न किन्तु सुधा भगिनी तत्र गतवर्गे भवती पठितवती खलु अन्ते
आं महोदय अहं पठितुम् आरम्भं कृतवती समयः अभवत्
समयः तत्र अतीतः आसीत् अस्तु भगिनि अतः भवती एव इदानीं तत्र अग्रे द्वितीयप्रश्नः
आम् महोदय घटस्य तद्रूपस्यापि च एवमेव चिन्तनीयम् किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बन्धम् इति
सम्भाव्यते
इत्युक्ते
तस्मिन् विषये वदतु तृतीयमपि अस्तु अस्तु तत्र तृतीयं चतुर्थमपि पठतु भगिनि
बिलस्य मुखे सर्पः वर्तते तस्य प्रसर्परूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते एकस्मिन् हृदे घटः पतितः एकस्मिन् हृदे घटः पतितः घटः ह्रदतलं गतः घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्
हा इति प्रश्नः अस्तु इदानीम् एकमेकं प्रश्नं स्वीकृत्य चिन्तयामः प्रथमप्रश्नः तत्र यत् प्रतिमा भगिन्या पठितं तत्र किम् आसीत् घट तत्र कपालद्वयम् अस्ति तेन तत्र
कपालद्वयं पृथक्तया अन्यत्र भवितुम् अर्हति वा इति प्रश्नः
इति प्रश्नः तत्र तु न इति उत्तरं खलु इदानीं तत्र अस्ति इदानीं द्वितीयप्रश्नः अस्ति घटस्य तद्रूपस्यापि च एवमेव चिन्तनीयं नाम
रूपम् इति वर्णम् इति अर्थः
इति गुणः सत्यं भगिनि हा रूपं नाम वर्णः
घटस्य विना अन्यत्र आश्रयं
तत्र एतत् वयं वक्तुं शक्नुमः वा तत्र घटः अत्र अस्ति किन्तु घटस्य रूपम् अन्यस्मिन् प्रकोष्ठे अस्ति इति वक्तुं शक्नुमः वा
वक्तुं न शक्नुमः
अतः तत्र
घटस्य अन्यत्र आश्रयं विना रूपं पृथक्तया
न वर्तते समीचीनं अतः तत्र एतत् न सम्भाव्यते. अस्तु समीचीनम्. इदानीं तृतीयप्रश्नः. सर्पस्य गृहं
सर्पति
खलु बिलस्य
बिलस्य मुखे सर्पः वर्तते. तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते.
तत्र प्रसर्पणक्रिया प्रसर्पणरूपा क्रिया नाम क्रिया नाम तत्र यथा तत्र सर्पः कथं गच्छति इति प्रश्ने सति तत्र सर्पति अथवा क्रियायाः नाम अस्ति प्रसर्पणक्रिया. प्रसर्पण इति सर्पस्य क्रिया तत्र येन सर्पः अग्रे गच्छति चलति शक्नुमः वा तत्र सर्पः अत्र अस्ति किन्तु प्रसर्पणक्रिया तत्र अग्रे अस्ति इति वक्तुं शक्नुमः वा
न वक्तुं न शक्नुमः. क्रिया तु सर्पस्य
हा यत्र सर्पः अस्ति तत्र एव क्रिया अपि अस्ति हा इति. अस्तु इदानीम् अन्तिमप्रश्नः.
एकस्मिन् हृदे घटः पतितः.
हृदः नाम
सरोवरः.
सरोवरः हा.
घटः हृदतलं गतः. घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्? घटत्वं तु घटे अस्ति.
परिस्थितिः का तत्र? ह्रदः अस्ति. ह्रदे घटः पतितः. पतितः किन्तु कुत्र पतितः नाम ह्रदतलं गतः नाम अधोभागे अस्ति. ह्रदे अधोभागे अस्ति. ह्रदतलं नाम तलं तत्र पातालम् इति तत्र अधोभागे हा अधोभागे अस्ति घटं घटः. किन्तु घटत्वं यत् घट तत्र घटस्य धर्मः तत् किं जलस्य उपरि एव तत्र तरति इति तत् केनापि दृष्टं वा एतादृशं?
घटे घटं यत्र अस्ति तत्र एव घटत्वम् अस्ति.
अस्ति हा इति अतः तत्र इदानीं तत्र चत्वारः प्रश्नाः सन्ति तेषाम् उत्तरं तु सर्वदा न एव हा इति. किन्तु अतः तत्र इदानीं प्रश्नः उदेति तत्र कीदृशः सम्बन्धः अत्र अस्ति इति. तत्र पदार्थद्वयमस्ति. प्रत्येकप्रश्ने तत्र पदार्थद्वयमस्ति. तयोः मध्ये कीदृशः सम्बन्धः इति प्रश्नः अस्माकं. धन्यवादः भगिनि. हा धन्यवादः भगिनि. अस्तु अग्रे तत्र अन्य कोऽपि तत्र पठितुम् इच्छति तत्र अग्रे? अस्तु तत्र शोभा भगिनी पठितुम् इच्छति वा?
आं महोदय. अस्तु अग्रे सर्वेषां प्रश्नानां न इत्येव समाधानम्. अतः घटस्य कपालं विहाय रूपस्य घटं विहाय प्रसर्पणस्य सर्पं विहाय घटत्वस्य घटं विहाय कदाचिदपि अदर्शनात् नूनं तेषां सम्बन्धः न संयोगः. कुतः? पूर्वम् अप्राप्तयोः विविक्तयोः या प्राप्तिः सा संयोग इत्युच्यते.
तावत्पर्यन्तम्.
अस्तु महोदय. तत्र यथा
अग्रिमवाक्यमपि पठतु तदनन्तरं विवृणोतु. तत्र अतः संयोगं विहाय
अतः संयोगं विहाय अन्यः कश्चित् सम्बन्धः एतेषां स्वीकार्यः. किन्तु तत्र पुनरेकवारम् एतत् वाक्यं पठामि महोदय. कदाचिदपि अदर्शनात् नूनं तेषां सम्बन्धः न संयोगः. कुतः इत्युक्ते पूर्व
मध्ये तत्र इदानीम् एकमेकं पश्यामः. तत्र घटः अपि कपालद्वयं
तत्र यथा अधुना दृष्टवन्तः कपालयोः द्वे कपालयोः संयोग संयोजने
कपालद्वयमिति स्वीकुर्मः कपालद्वय तत्र कपालद्वयमस्ति तयोः मध्ये संयोगसम्बन्धः अस्ति किन्तु इदानीं कपालद्वयमस्ति अपि तेन निर्मितः घटः अस्ति इदानीं
कपालद्वयम् अस्ति तेन निर्मितः घटः अस्ति
इदानीं
कपालद्वयस्य द्वयं विहाय घटस्य
घटः
घटः न भवितुम्
न अर्हति अतः इदानीं प्रश्नः अस्ति कपालद्वयम् अपि घटः तयोः मध्ये कः सम्बन्धः इति प्रश्नः अपि तत्र रूपमस्ति घटमस्ति द्वितीयप्रश्ने रूपमस्ति घटः अस्ति
तथा एव रूपमस्ति घटम् अस्ति
घटः
रूपं घटं विहाय रूपस्य प्रसक्तिः नास्ति
हा अतः तयोः मध्ये रूपमस्ति घटमस्ति तयोः मध्ये कः सम्बन्धः
तावदेव तथा एव प्रसर्पणस्य सर्पं विहाय तत्र सर्पम् अस्ति तस्य प्रसर्पणक्रिया भवति सर्पं विहाय प्रसर्पणक्रिया भवितुं न अर्हति अतः तत्र प्रसर्पणस्य अपि सर्पस्य कः सम्बन्धः इति
तत्र क्रियायाः अपि सर्पस्य तयोः मध्ये कः सम्बन्धः इति
अपि च घटत्वस्य घटं विहाय तत्र
भवितुम् अर्हति
घटं विहाय घटं घटे एव घटत्वम् अस्ति ततः घटं विहाय घटत्वस्य प्रसक्तिः न भवति अतः तत्र घटस्य अपि घटत्वस्य कः सम्बन्धः इति
तयोः मध्ये कः
तयोः मध्ये कः सम्बन्धः इति प्रश्नाः अपि च अग्रे दत्तं कदाचिदपि अदर्शनात् इत्युक्ते न दृष्ट्वा नूनं तेषां सम्बन्धः न संयोगः
इदानीं तत्र अस्ति लिखितमस्ति तत्र सम्बन्धः इति कः सम्बन्धः इति प्रश्नः अस्ति इति उक्तवन्तः किन्तु सः सम्बन्धः संयोगः न भवति इति लिखितमस्ति किमर्थं तत्र कुतः अतः
कुतः इत्युक्ते पूर्वं तत्र अप्राप्तयोः एव किल महोदय पूर्वम् अप्राप्तयोः विविक्तयोः या विविक्तयोः इत्युक्ते तत्र पृथक्
कर्तुं शक्नुमः
तेषां विविक्तयोः या प्राप्तिः सा संयोग इति उच्यते
नाम यदा तत्र हस्तद्वयम् आसीत् हस्तौ पूर्वं विविक्तौ स्तः इदानीं संयुक्तौ स्तः
तर्हि तत्र इदं प्राप् इदं न तत्र प्राप्तिः एव संयोगः इति वक्तुं शक्नुमः
तत्र संयुक्तौ नाम इदानीं हस्तद्वयमस्ति तयोः मध्ये यः सम्बन्धः अस्ति तस्य नाम अस्ति संयोगसम्बन्धः इति नमस्कारसमये हस्तद्वयं हस्तौ संयुक्तौ भवतः तस्मिन् समये तयोः मध्ये सम्बन्धः
संयोगः भवति
संयोगसम्बन्धः इति वदामः किन्तु
तर्हि तत्र महोदय यस्य संयोगं भवति अपि च विविक्तिः किम् उक्तवन्तः तत्र विविक्ताः अपि भवति
तत्र विविक्तयोः षष्ठी द्विवचनं
विविक्तयोः तेषां
यत् हस्तद्वयं तत्र उदाहरणे तत्र आरम्भे तत्र स्वस्थानस्थितौ नाम भिन्नस्थानस्थितौ अपि विविक्तौ हस्तौ स्तः खलु पूर्वं तदनन्तरं किं तयोः या प्राप्तिः नाम तदनन्तरं तत्र नमस्कार इच्छया तत्र किम् अभवत् तत्र हस्तौ संयुक्तौ भवतः तत्र संयोगः इति सम्बन्धः तत्र यः सम्बन्धः प्राप्तः सः सम्बन्धः संयोगः इति उच्यते नाम हस्तयोः मध्ये यः सम्बन्धः अस्ति तत्र सः सम्बन्धः संयोगसम्बन्धः इति वदामः किन्तु तत्र यदा तत्र हस्तौ संयुक्तौ भवतः इदानीं पुनः विविक्तौ भवितुम् अर्हतः
किन्तु
एकः हस्तः अन्यं हस्तं विना भवितुम् अर्हति खलु? अतः तत्र
अत्र तादृशं नास्ति इति मन्ये,
अत्र तादृशं
नास्ति, अत्र तादृशं नास्ति, हस्तौ भवन्ति चेदपि किमपि किं तत्र व्यर्थः न भवतः इति वा? किन्तु
तत्र अतः तत्र रूपः रूपम् अपि घटः तत्र विविक्तौ भवतः इति न वक्तुं शक्नुमः,
न वक्तुं शक्नुमः, तदेव तत्र व्यत्यासः अस्ति
भेदः
उदाहरणेषु
भेदः अस्ति, अतः
भेदः अस्ति
घटस्य अत्र वर्तते सः तु संयोगसम्बन्धः नास्ति इति इति तत्र सिद्धमस्ति इदानीं, अतः तत्र अतः संयोगं विहाय अन्यः कश्चित् सम्बन्धः एतेषां स्वीकार्यः, नाम एतेषां सम्बन्धः संयोगं विहाय अन्यः सम्बन्धः इति एव स्वीकार्यः भवति, तत् अन्यः सम्बन्धः एव अत्र अस्ति इति तत्र आपतति तत्र अन्य तत्र अन्यः विकल्पः नास्ति, तत्र संयोगः सम्बन्धः अत्र नास्ति, अतः अन्यसम्बन्धः एव तस्य नाम तत्र सः सम्बन्धः एव तत्र समवायः इति भवति. अस्तु, समीचीनं, धन्यवादः भगिनी.
धन्यवादः.
अस्तु, अग्रे तत्र सावित्री भगिनी पठितुम् इच्छति वा अथवा तत्र
पठामि. अत्र किञ्चित् स्पष्टता अपेक्षते इत्युक्ते श्रूयते वा महोदय? यदा हस्तयोः इति यदुक्तं तत्र संयोगः भवति, एवं घटारूपसर्ता प्रसर्पणा इत्यादिषु संयोगः न भवति इति किल तात्पर्यं?
तावदेव तावदेव अस्ति भगिनि, नाम तत्र हस्तौ इदानीं तत्र संयुक्तौ सः अग्रे अपि तत्र विविक्तौ भवतः खलु, तत्र पृथक् कर्तुं शक्नुमः, किन्तु रूपमपि घटः तयोः तत्र पृथक् तत्र पृथक् न कर्तुं शक्नुमः तत्र खलु, करणं न भवति भवति खलु.
अत्र पृथक् पृथक् करणम् इत्युक्ते अवयवानां तत्र पृथक्करणम् अभवत्
प्रदर्शितं तत्र वयम् एतत् वक्तुं शक्नुमः वा?
न श्रूयते महोदय, न श्रूयते,
न श्रूयते वा?
स्पष्टता नास्ति किञ्चित् अल्पमभवत् ध्वनिः भवता.
इदानीं श्रूयते वा?
किञ्चित् उचितं वयमपि
भवत्याः मैक् किञ्चित् म्यूट् करोतु.
तत्र सर्वे सर्वे शृण्वन्ति वा इदानीं? अस्तु अस्तु भगिनि, हा अस्तु अस्तु, तर्हि तत्र समस्या का इति न जानामि. अस्तु अस्तु भगिनि, तर्हि तत्र अस्तु तत्र सावित्री भगिनि अतः तत्र अग्रे
किञ्चित् पठामि वा?
हा इदानीं सर्वे शृण्वन्ति वा?
भवान् किम् उक्तवान् महोदय, पुनः एकवारं कृपया वदतु महोदय.
भगिनि तत्र सावित्री भगिनि अतः तत्र भवती एव तत्र सहसम्बन्धः एव समवायः इति तत्र हा तत्र पठतु भगिनि.
सहसम्बन्धः एव समवायः, अवयव अवयविनोः अवयवावयविनोः गुणविनोः क्रिया अक्रियावतोः क्रिया अक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः तत्र आश्रयाणाम् आधेयानां च नानात्वे अपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते पुनः किञ्चित् विवरणं कर्तुं प्रयत्नं करोमि वा तत्र पूर्वं संयोगः इति वयं पठितवन्तः इदानीम् अस्माकं ये प्रश्नाः सन्ति तेषाम् उत्तरं वक्तुम् अत्र प्रयत्नं करोति सः सम्बन्धः एव समवायः यत्र सर्पस्य प्रसर्पणस्य इत्यादिकं वयं पठितवन्तः कं सम्बन्ध वयम् अत्र समवायः इति वदामः संयोगः इति न वदामः एवमेव अवयव अवयवी इति द्वयोः गुणा गुणिनोः क्रिया अक्रियावतयोः अक्रियावतोः हा क्रिया क्रियावतोः क्षम्यता यस् क्रियावतोः जाति व्यक्त्योः विशेष नित्यद्रव्ययोः च अयमेव समवायसम्बन्धः इत्युक्ते यत्र वयं नित्यवस्तु अस्ति तत्र विशेषः न भवति इत्यादिकं कर्माणि द्वारा वयं यत् पठितवन्तः तत्र यदि अस्ति तत् समवायसम्बन्धः इति एव वक्तव्यं न तु संयोगः इति वा अतः
अग्रे तत्र कः पठितुम् इच्छति अथवा का पठितुम् इच्छति तत्र अग्रे आदर्श महोदय पठितुम् इच्छति वा अग्रे
महोदय एकः प्रश्नमस्ति तत्र सः सम्बन्धः इति उक्तं सः इत्युक्ते किं संयोगः तद् समवायः
तत्र प्रश्नानाम् उत्तरं तत्र प्रश्ने तत्र कः सम्बन्धः इति आसीत् खलु तत्र सन्दर्भ तत्र चतुष्टयम् आसीत् खलु
आं महोदय
तेषां तत्र सम्बन्धः कः इति प्रश्नः आसीत् तत्र सर्वत्र सम्बन्धः तु संयोगः नास्ति इति अपि वयं जानीमः खलु अतः तत्र अत्र नूतनसम्बन्धः अपेक्षितः अस्ति तस्य नूतनस्य सम्बन्धस्य नाम अस्ति समवायः इति तस्य नामकरणमस्ति समवायः इति
अस्तु महोदय धन्यवादः
हा समीचीनप्रश्नः भगिनि हा अस्तु तत्र अग्रे तत्र आदर्शमहोदय पठितुम् इच्छति वा
सः सम्बन्धः एव समवायः
हा इति हा इदानीं तत्र एकमेकं स्वीकुर्मः महोदय तत्र प्रथमपदम् अवयव अथवा तत् त्यजामः तद् अग्रे कुर्मः गुणगुणिनोः इति स्वीकुर्मः महोदय तत्र गुणगुणिनोः इति तत्र मध्ये चित्रमस्ति तत्र रूपादिगुणाः अपि द्रव्यं गुणवत् इति मध्ये अस्ति खलु महोदय तत्र किञ्चित् विवृणोतु तत्र किमस्ति
क्षम्यतां महोदय
श्रूयते खलु
हा श्रूयते
हा तत्र महोदय तत्र गुणगुणिनोः इति तत्र पदं तत्र गुणः अपि गुणि गुणिनोः इति तत्र गुणि इत्युक्ते कः
यस्मिन् गुणः अस्ति
यस्मिन् गुणः अस्ति सः गुणि अस्तु तत्र नाम यदि तत्र रूपम् अस्ति घटे रूपम् अस्ति इति स्वीकुर्मः रूपमिति गुणः अतः घटः किं भवति
गुणि
हा तत्र रूपं घटे अस्ति घटः भवति गुणि इदानीं तत्र गुणगुणिनोः सम्बन्धः समवायः इति नाम गुणरूप इति गुणं तत् घटे अस्ति केन सम्बन्धेन अस्ति इत्युक्ते तत्र नाम तत्र तयोः सम्बन्धः अस्ति यतोहि तत्र गुणः अपि तत्र घटं तत्र रूपं विहाय तत्र घटं न तिष्ठति तत्र घटं विहाय रूपं न तिष्ठति इति कृत्वा तत्र तयोः मध्ये सम्बन्धः संयोगः नास्ति अतः तत्र नूतनसम्बन्धः अपेक्षितः सः समवायः इति वदामः अतः तत्र गुणरूपं नाम गुण घटे समवायसम्बन्धेन अस्ति इति वदामः तत्र तयोः मध्ये कः सम्बन्धः
समवायसम्बन्धः
इति तत्र तादृशमेव तत्र प्रथमेपुटे वयं दृष्टवन्तः तत्र गन्धः पृथिवी गन्धः इति गुणः अस्ति पृथिव्याम् अतः तत्र गन्धः पृथिवी तयोः मध्ये कः सम्बन्धः समवायसम्बन्धः शैत्यं जले अस्ति तत्रापि समवायसम्बन्धः इति भवति अतः तत्र गुणगुणिनोः मध्ये सम्बन्धः ये अस्ति सः समवायसम्बन्धः इदानीं तत्र पुनः क्रिया क्रियावतोः तत्र तस्मिन् विषये किञ्चित् विवृणोतु तत्र क्रिया
उत्क्षेपणादिक्रियाः अस्ति हा ते स्वतन्त्रेण न सन्ति द्रव्ये द्रव्यं
भवन्ति समीचीनम् अत्र प्रसर्पणमिति क्रिया अस्ति सर्पे अस्ति
अतः तयोः सम्बन्धः समवायः इति कथ्यते
समीचीनं तत्र क्रियावत् नाम तत्र यस्मिन् अथवा यस्य क्रिया अस्ति सः क्रियावान् अथवा क्रियावत् इति प्रातिपदिकम् अतः तत्र क्रियावतोः इति षष्ठी हा तत्र क्रियावान् क्रियावती क्रियावत् इति नपुंसकलिङ्गे अतः तत्र क्रिया यस्मिन् क्रिया अथवा यस्यां क्रिया अस्ति इति अतः तत्र अत्र सर्पे प्रसर्पणक्रिया अस्ति सर्पः किं भवति क्रियावान् प्रसर्पणक्रिया अपि प्रसर्पवान् तत्र क्रियावान् क्रिया अस्ति प्रसर्पणक्रिया क्रियावान् अस्ति सर्पः तयोः मध्ये सम्बन्धः अस्ति समवाय समीचीनं महोदय धन्यवादः अस्तु अग्रे तत्र गतवर्गे तत्र ये ये न पठितवन्तः तत्र शर्वाणी भगिनी पठितुम् इच्छति वा तत्र
नमस्कारः
महोदय
शृणोमि
अस्तु भगिनि अस्तु हा अस्तु तर्हि तत्र प्रताप् महोदय नमस्कारः तत्र अग्रे तत्र इदानीं तत्र जातिव्यक्त्योः इति
श्रूयते वा मम ध्वनिं
श्रूयते तत्र घटत्वादिजातिः घटादिव्यक्तिः जातिमति इति तत्र मध्ये चित्रमस्ति खलु तत्र एतदस्ति तत्र घटत्वम् इति घटस्य जातिः इति इत्युक्ते घटत्वं खलु तत् कुत्र वर्तते घटत्वं
घटे
वर्तते सर्वेषु घटेषु वर्तते तत्र घटत्वजातिः ते जाति नाम तत्र सदस्याः के नाम सर्वे घटाः एकः घटः किं भवति तत्र व्यक्तिः भवति खलु घटत्वजातेः व्यक्तिः घटः तावदेव खलु अतः तत्र नाम सदस्यः एकः अतः तत्र घटत्वादिजातिः कुत्र वर्तते घटादिव्यक्तिः जातिमति जातिमति नाम पुनः तत्र जातिमत् इति प्रातिपदिकं जातिमत् इत्युक्ते यस्य अथवा यस्मिन् जातिः अस्ति
व्यक्तिः सर्वदा स्त्रीलिङ्गे भवति जातिमति
तत्र समीचीनं भगिनि अतः एव तत्र जातिमति इति अस्ति तत्र घटादिव्यक्तिः जातिमति घटः पुल्लिङ्गे अस्ति किन्तु घटादिव्यक्तिः इति पदे तत् पदं तु स्त्रीलिङ्गपदमस्ति अतः तत्र जातिमति अतः घटत्वम् इति जातिः घटे वर्तते अतः तत्र तयोः मध्ये सम्बन्धः कः प्रताप् महोदय
समवायः
सम्बन्धः पटत्वम् इति जातिः पटे वर्तते सम्बन्धः पुनः समवाय सम्बन्धः अतः तत्र किमपि तत्र गोत्वम् अस्ति तत्रापि तत्र समवायसम्बन्धः इति अतः तत्र किमपि कापि जातिः भवतु तत्र जातिव्यक्तिः या अस्ति तस्यां तत्र जातिः समवायसम्बन्धेन तिष्ठति इति अग्रे एतादृशवर्णनं वयं कुर्मः अस्तु इदानीं तत्र अग्रे अन्तिमं तत्र विशेषनित्यद्रव्ययोः इति तत्र अग्रे तत्र गीता भगिनी वक्तुमिच्छति वा तत्र
धन्यवादः
महोदय धन्यवादः
नमस्कारः अहं प्रथमकक्षावारम्
आगतवती अस्तु भगिनि चिन्ता मास्तु हा अस्तु अग्रे तत्र अस्तु पुष्पा भगिनी वक्तुमिच्छति वा
आं महोदय
हा तत्र विशेषनित्यद्रव्ययोः समवायसम्बन्धः इति किञ्चित् विवृणोतु
हा अत्र नित्य विशेषाः नित्यद्रव्याः द्रव्याणि सन्ति अत्र विशेषाः तद्वत् वदनेन विशेषः नित्यद्रव्यं
विशेषः कुत्र कुत्र वर्तव्यम् विशेषः इति पदार्थः कुत्र कुत्र वर्तते
विशेषः सत्ता अस्ति
न विशेषः तत्र पृथिव्याम् अस्ति वा विशेषः
विशेषः पृथिव्यां नास्ति
नास्ति हा यतोहि पृथिवी इति तु तत्र नित्यद्रव्यं नास्ति किन्तु पृथिव्याः परमाणुः इति वदामः तत्र परमाणवः सन्ति चेत् तत्र अस्ति विशेषः अस्ति यतोहि नित्यद्रव्यं परमाणु नित्यद्रव्यं हा अतः तत्र नित्यद्रव्यं किमपि स्वीकुर्मः तत्र आकाशः वा परमाणुः स्वीकुर्मः तत्र विशेषः इति पदार्थः अस्ति खलु विशेषः इति काल अतः तत्र विशेषः इति पदार्थस्य तत्र पृथक् कर्तुं शक्नुमः वा तत्र नित्यद्रव्यम् अत्र अस्ति अपि विशेषः तस्य विशेषः अन्यत्र अस्ति इति वक्तुं शक्नुमः वा न अतः तत्र सम्बन्धः अस्ति समवायसम्बन्धः विशेषः नित्यद्रव्ये केन सम्बन्धेन तिष्ठति
समवायसम्बन्धेन विशेषाः नित्यद्रव्ये
द्रव्येषु
द्रव्येषु
तिष्ठन्ति समीचीनं भगिनि हा अतः तावदेव अस्ति अस्तु इदानीं तत्र तत्र प्रथम उदाहरणं यदासीत् इदानीं तस्य तत्र अर्थः कः इति इदानीं पश्यामः अस्तु तत्र तर्हि तत्र धन्यवादः भगिनि हा अस्तु तत्र कः पठितुम् अस्तु शैलजा भगिनी
महोदय क्षम्यतामि अहं पूर्वेषु केषुचित् वर्गेषु मम उपस्थितिः नासीत् नित्यद्रव्यं द्रव्यम् अनयोः भेदः कः
तत्र द्रव्य कति द्रव्याणि सन्ति प्रथमे पुटे नवद्रव्याणि सन्ति
नवद्रव्याणि
तत्र पृथ्वी जलं तेजः वायुः इति अस्ति तदनन्तरम् आकाशः कालः दिक् आत्मा मनः तत्र आकाशः आरभ्य आकाशः कालः दिक् आत्मा मनः तत्र नित्यद्रव्याणि अपि तत्र आकाशः इति तत्र नित्यद्रव्यम् अस्ति कालः अपि तादृशं दिक् आत्मा मनः अपि तत्र परमाणवः इति तत्र गतवर्गे तेषां तत्र वर्णनम् आसीत् परमाणवः के इति परमाणवः अपि नित्यद्रव्यम् इति नैयायिकाः वदन्ति अतः तेषु सर्वेषु नित्यद्रव्येषु विशेषः इति पदार्थः वर्तते अस्तु समीचीनं
महोदय पुनः वदति वा अहमपि न अवगतवती पूर्वस्मिन् वर्गे किमर्थं विशेषः नित्यद्रव्येषु एव वर्तते
नाम तत्र इदानीं तत्र यदि तत्र उदाहरणम् आसीत् खलु भगिनी, तत्र गतवर्गे दूरवाणी द्वयम् अस्ति, इदानीं तयोः भेदः कथं ज्ञायते अस्माभिः इति. तत्र वयं किं वदामः, अस्तु एतत् एषा दूरवाणी अत्र अस्ति, अन्या दूरवाणी अन्यत्र अस्ति, अतः स्थानभेदेन वयं तत्र दूरवाणी द्वयमस्ति तयोः मध्ये भेदः स्थापयितुं शक्नुमः खलु, तत्र भेदः अस्ति इति ज्ञानं भवति अस्माभिः खलु. अन भगिनि
समीचीनम्.
इदानीं प्रश्नः अस्ति, तत्र अन्यरीत्यापि तत्र भेदः स्थापितुं शक्नुमः, नाम तत्र अवयवभेदेन अवयविनोः भेदः अपि भवति इति. नाम तत्र एषः वृक्षः अस्ति, अन्यः वृक्षः अस्ति, एष इदानीम् अस्मिन् वृक्षे तत्र शाखाः सन्ति, ते शाखाः भिन्नाः सन्ति, अन्यस्मिन् तत्र वृक्षे ये शाखाः सन्ति ते अपि ताः अपि भिन्नाः सन्ति इति उक्त्वा वृक्षद्वयोः मध्ये तत्र भेदः अपि ज्ञातुं शक्नुमः. अतः तत्र तत्र यः कोऽपि पदार्थः अस्ति तत्र तत्र प्रत्यक्षज्ञानमस्ति, नाम इन्द्रियैः तस्य दर्शनं भवति, तत्र अनेकविधेन तत्र भेदः ज्ञातुं शक्नुमः, भेदं ज्ञातुं शक्नुमः. तत्र दूरवाणीद्वयं वा वृक्षद्वयं वा प्रकोष्ठद्वयं वा इति, तत्र अवयवभेदः अवयवाः सन्ति चेत् तत्र तस्य प्रयोगेन उपयोगेन भेदः अपि साधितुं शक्नुमः, भेदं साधितुं शक्नुमः. किन्तु किं भवति, तत्र परमाणवः ये सन्ति ते तु प्रत्यक्षः, तेषां प्रत्यक्षज्ञानम् अस्ति वा, तत्र चक्षुषा तत्र परमाणूनां तत्र दर्शनं भवति वा?
न.
अतः तत्र यदि तत्र तस्य दर्शनं न भवति, तत्र वयं कथं ज्ञातुं शक्नुमः तत्र भेदः वर्तते इति. तत्र वयम् अस्माकं चिन्तनमस्ति, तत्र तत्र किं सहस्रसहस्र कोटिकोटिसहस्राणि सहस्राः तत्र परमाणवः सन्ति इति, किन्तु तत्र एकः अपि अन्यः अस्ति तयोः मध्ये, तत्र एषः भिन्नः इति तत्र कथं वदामः, अवयवभेदेन न वक्तुं शक्नुमः, अपि साक्षात् प्रत्यक्षज्ञानेन अपि न वक्तुं शक्नुमः, किन्तु भेदः इति वक्तव्यं, भेदः इति वक्तव्यः अस्ति तत्र. अतः ते किं कृतवन्तः, तत्र अस्तु तेषु सर्वेषु नित्य तत्र परमाणुषु सर्वेषु परमाणुषु विशेषः इति एकः पदार्थः अस्ति, येन पदार्थेन तत्र भेदः अस्ति इति ज्ञातुं शक्नुमः. अपि तत्र ये तत्र विशेषः इति पदार्थः केवलम् अस्मिन्नेव दर्शने स्वीकृतः इति कृत्वा तत्र तस्य नाम अस्ति वैशेषिकदर्शनम् इति. एतत् पुस्तकं तु तत्र अन्नम्भट्टैः लिखितं पुस्तकं तर्कसङ्ग्रहः. एतत् पुस्तकं तु केवलं न्यायशास्त्रस्य परिचयग्रन्थं नास्ति, अपि तत्र वैशेषिकदर्शनस्य अपि परिचयग्रन्थम् अस्ति, आरम्भग्रन्थम् अस्ति. अतः तत्र मतं तत्र कुत्रचित् नैयायिकानां मतं, कुत्रचित् वैशेषिकानां मतम् अस्ति अस्मिन् पुस्तके. तत्र अतः तत्र परमाणुषु भेदः कथं ज्ञायते, भेदं कथं स्थापयामः इति प्रश्ने सति तत्र विशेषः इति पदार्थः आवश्यकः. तथैव तत्र आकाशः अस्ति, मनः अस्ति, आत्मा अस्ति, तत्र तयोः मध्ये भेदः कथं ज्ञातुं शक्नुमः. पुनः तत्र आत्मा इति तत्र प्रत्यक्षदर्शनं न भवति, अतः तत्र आत्मा भिन्ना अस्ति इति कथं वक्तुं शक्नुमः. अतः तत्र अवयवाः अपि न सन्ति इति कृत्वा पुनः भेदं यदि स्थापितुं तत्र भेदः अस्ति इति यदि वक्तुम् इच्छामः, तत्र प्रश्नः उदेति केन माध्यमेन भेदः साधितः. तत्र न्यायशास्त्रे सर्वदा केवलम् एतदस्ति इति न वदामः, तत्र ज्ञानमस्ति कीदृशज्ञानं केन प्राप्तं ज्ञानं प्रमाणम् इति प्रमाणस्य महत्त्वम् अस्ति तत्र केवलं ज्ञानमस्ति इति न तत्र तद् ज्ञानं समीचीनं ज्ञानं वा वयं कथं ज्ञातुं शक्नुमः तद् समीचीनम् अस्ति इति तत्र तद् सत्यम् असत्यं तयोः मध्ये तत्र तत्र प्रमाणम् इति कथं साधितुं शक्नुमः इति एव तत्र अस्मिन् दर्शने महत्त्वपूर्णविषयः अतः तत्र विशेषः इति स्वीकृतः भवति स्वीकृतं तैः यतोहि परमाणुषु विशेषः नास्ति चेत् तत्र भिन्नता न साधितुं शक्नुमः तथैव आकाशे मनः तेषु अपि
नैयायिकाः न स्वीकुर्वन्ति परन्तु
नैयायिकाः अपि स्वीकुर्वन्ति इदानीं तत्र किन्तु तत्र आरम्भे तत्र वैशेषिकाः एव तत्र विशेषः इति पदार्थः अस्ति इति तत्र तत्र तस्य परिचयं तत्र एतस्य पदार्थस्य आवश्यकता अस्ति इति उक्तवन्तः अतः तेषां मतम् अस्ति दर्शनमेव वैशेषिकदर्शनम् इति नामकरणम् अस्ति किन्तु नैयायिकाः अपि स्वीकुर्वन्ति किन्तु तत्र विशेषस्य प्राधान्यम् इति विचारे तत्र भेदः वर्तते अस्मिन् इदानीं परिचयग्रन्थः अस्ति इति कृत्वा तस्मिन् विषये आधिक्येन न चिन्तनं मास्तु किन्तु अतः एव तत्र मया प्रेषितं तत्र तर्कसङ्ग्रहः इति परिचयग्रन्थः अस्ति किन्तु तत्र अनेके नैयायिकाः सन्ति इति बहु किमपि लिखितवन्तः सर्वेषां ग्रन्थानां तत्र अध्ययनं तु न कर्तुं शक्नुमः अपि तत्र यदि कुर्मः तत्र अनेकानां प्रश्नानाम् उत्तरमपि प्रायशः प्राप्यते किन्तु अस्तु तावदेव वदामि स अस्तु अना भगिनी समीचीनं वा अग्रे सरामः वा
आं समीचीनं धन्यवादः
महोदय अन्य प्रश्नः एकः अस्ति परमाणूनां भेदः विशेषेण ज्ञातुं शक्नुमः इति वयं दृष्टवन्तः विशेषाणामपि भेदः वर्तते
वा तत्र अग्रे प्रायशः इदानीम् अद्य मास्तु समीचीनः प्रश्नः भगिनि इदानीं तत्र मास्तु किन्तु अग्रे प्रायशः अग्रिमे वर्गे अथवा तस्य अग्रिमे वर्गे तत्र करपत्रद्वयं वयं पठामः तत्र तथा भवत्याः प्रश्नस्य उत्तरं किम् इति भवती जानाति
अस्तु महोदय
समीचीनप्रश्नः तत्र विशेषः कीदृशपदार्थः वैशेषिकाः तत्र विशेष इति पदार्थस्य आवश्यकता केवलं तद् न उक्तवन्तः किन्तु सः पदार्थः कीदृशः इति अपि उक्तवन्तः अतः तत्र प्रायशः अग्रिमे वर्गे अथवा तस्य अग्रिमे वर्गे करपत्रं पठामः भगिनि
अस्तु महोदय धन्यवादः
धन्यवादः भगिनि अस्तु
क्षम्यतां महोदय प्रश्नः अस्ति दूरवाणी इति यत् अस्ति तत् तृणं किम्
दूरवाणी इति किं भगिनि
दूरवाणीद्वयम् अस्ति तयोः मध्ये भेदः इति प्रश्नः आसीत् अत्र दूरवाणी इत्युक्ते किं तृणं वा
दूरवाणी दूरवाणी इत्युक्ते फोन् खलु
दूरवाणी मया दूर्वा इति चिन्तितम् अस्तु
क्षम्यतां दूरवाणी हा हा दूरवाणी
अस्तु महोदय धन्यवादः
तत्र दूरवाणी हा दूरवाणी उक्तवान् क्षम्यतां हा दूरवाणी हा मम दोषः हा धन्यवादः
धन्यवादः
अस्तु अग्रे तत्र भवानी भगिनी हा शैलजा भगिनी अस्तु अस्तु अस्तु
आचार्यजि आचार्यजि चित्रं सप्तदश चित्रं
भवति चित्रमेव इदानीम् अग्रिमविषये तत्र चित्रे किं किम् अस्ति इति एव विषयः हा
धन्यवादः
हा समीचीनप्रश्नः हा अस्तु अतः तत्र अग्रे तत्र शैलजा भगिनी इदानीं तत्र अग्रे अवयविनोः इति अस्ति तत्र घटः इति स्वीकरोतु तत्र कपालद्वयम् इति स्वीकरोतु
आं महोदय उदाहरण
भगिनि तत्र प्रायशः सरलम् उदाहरणं स्वीकुर्मः, तत्र शरीरः शरीरं तत्र शरीरे हस्तद्वयमस्ति, तत्र तत्र अवयवी इति कः अपि तत्र अवयवाः के
अवयवाः हस्तौ
हस्तौ
अवयवी न अवयविन अवयवी
तत्र शरीरं शरीरम् इति नाम यस्मिन् तत्र इदानीं तत्र किञ्चित् व्याकरणरीत्या वदामि, तत्र यस्मिन् अवयवाः सन्ति सः अवयवी इति भवति, तत्र इनि प्रत्ययः, अतः तत्र हस्तौ तत्र शरीरे स्तः इति वदामः, किन्तु इदानीं वयं दृष्टवन्तः खलु तत्र परमाणुषु पटः अस्ति, नाम अवयवाः साधारणतया वयं किं चिन्तयामः अवयवाः अवयविनि भवन्ति इति, किन्तु इदानीं विपरीततया अस्माकं चिन्तनं भवेत्, नाम किं भवति तत्र शरीरः कुत्र अस्ति, तत्र शरीरः इति अवयवी अतत्र एतत् त्यजामः भगिनि, तत्र अवयवी शरीरम् इति अवयवी अपि तत्र हस्तौ, अतः तयोः मध्ये कः सम्बन्धः, तावदेव वदामः तयोः मध्ये कः सम्बन्धः,
समवायसम्बन्धः
समवायसम्बन्धः, यतः तत्र तत्र पृथक् न कर्तुमेव शक्नुमः, अतः तत्र तादृशमेव तत्र मध्ये तत्र घटाद्यवयविनः इति अस्ति, कपालद्वयवादि अवयवाः इति
अस्ति,
घटः घटः इति अवयवी, कपालद्वयम् इति अवयवाः तत्र अवयवद्वयं, किन्तु घटः तत्र कपालद्वये अथवा कपाले अस्ति समवायसम्बन्धेन इति अस्तु, अतः तत्र एकमेकं दृष्ट्वा वदामः, तत्र भगिनि तत्र उपरि यद्यदस्ति तत्र किञ्चित् विवृणोतु, तत्र द्रव्यं द्रव्ये तिष्ठति, तत्र
द्रव्यं द्रव्यं तिष्ठति, द्रव्यं गुणः तिष्ठति,
तत्र तत्र गुणः द्रव्ये तिष्ठति, तत्र प्रायशः तत्र शरः यदस्ति तत् उपरि गच्छति चेत् तत्र अधोभागे यदस्ति तत् अधिकरणता सूचयति इति तादृशं नास्ति इति मन्ये, यतोहि तत्र द्रव्यम् अधोभागे अस्ति किन्तु गुणः उपरि अस्ति, किन्तु द्रव्यमेव तत्र अधिकरणं भवति, अतः तत्र शरस्य महत्त्वपूर्णं नास्ति इति मन्ये, हा किन्तु हा अस्तु, तत्र एकमेकं तत्र विशेषः नित्यद्रव्ये वर्तते तद् दृष्टवन्तः, अपि सामान्यं द्रव्ये गुणे अपि कर्मणि वर्तते इति दृष्टवन्तः, क्रिया द्रव्ये एव वर्तते इति दृष्टवन्तः, किन्तु तत्र क्रिया द्रव्ये समवाय तत्र सम्बन्धः अस्ति समवायसम्बन्धः, गुणः द्रव्यं तयोः मध्ये सम्बन्धः समवायसम्बन्धः, द्रव्यं द्रव्यं तयोः मध्ये सम्बन्धः तु तत्र संयोगसम्बन्धः, यथा तत्र यदि तत्र वयं पुस्तकम् उत्पीठिकायां स्थापयामः तत्र सम्बन्धः कः भवति, शैलजा भगिनी
सामान्यं
संयोगसम्बन्धः
पृथक् कर्तुं शक्नुमः वा, तत्र पुस्तकम् उत्पीठिकायां स्थापयामः, इदानीं पुस्तकं उत्पीठिकायाम् अस्ति, इदानीं तत्र पृथक् नास्ति किन्तु पृथक् कर्तुं शक्नुमः वा, संयोगसम्बन्धः पुष्पा भगिनी इदानीं मास्तु, तत्र शैलजा भगिनी वदन्ती अस्ति, अतः तत्र शैलजा भगिनी
एकं पृच्छामि, यत्र अवयव अवयवी सम्बन्धः अस्ति तदपि द्रव्यद्रव्य अनयोर्मध्ये एव अस्ति, अवयव अपि द्रव्य अस्ति अवयवी अपि द्रव्य,
समीचीनं समीचीनं धन्यवादः, हा हा किन्तु तत्र हा सत्यमेव सत्यमेव, धन्यवादः भगिनि, हा मम दोषः एव उक्तः आसीत्, धन्यवादः भगिनि, हा तत्र अवयवः अवयविनोः तत्र सम्बन्धः समवायसम्बन्धः तत्र तु द्रव्यं द्रव्यमेव समीचीनं भगिनि हा उत्तमम् अस्तु धन्यवादः अस्तु अग्रे तत्र अन्यत् किमपि अस्ति वा तत्र अस्मिन् चित्रे प्रश्नः अस्ति वा धन्यवादः
धन्यवादः महोदय
हा अन्यस्य को तत्र प्रश्नः अस्ति वा तत्र
द्रव्यं द्रव्ये चेत् संयोगः एव खलु
इति अहम् उक्तवान् चित्रे तत्र दोषः
अच्छा
तत्र हस्तौ शरीरे तत्र शरीरम् अपि हस्तौ तयोः मध्ये समवायसम्बन्धः
महोदय प्रश्नः अस्ति महोदय अत्र लिखितम् अवयव अवयविनोः अपि समवायसम्बन्धः इति
सत्यं
तत्र द्रव्य
तदेव अहं यत् उक्तवान् तद् दोषाय आसीत् यथा तत्र धनसी भगिनी उक्तवती सत्यं तत्र द्रव्ययोः मध्ये संयोगसम्बन्धः अपि भवितुम् अर्हति समवायसम्बन्धः अपि भवितुम्
धन्यवादः
किन्तु तत्र गुणद्रव्यं तयोः मध्ये सर्वदा समवायसम्बन्धः एव अस्तु इदानीं तत्र प्रश्नः नास्ति चेत् तत्र घटः कपालः तत्र रूपादिगुणः द्रव्ये गुणवत् नाम द्रव्यं नपुंसकलिङ्गे अस्ति इति कृत्वा द्रव्यं गुणवत् अस्ति द्रव्ये गुणः अस्ति इति कृत्वा तत्र तत्रापि सम्बन्धः समवायसम्बन्धः क्रियावत् तत्रापि सम्बन्धः समवायसम्बन्धः एव इति अस्तु इदानीं तत्र अग्रे अन्तिमवाक्यम् अस्ति तत्र तत्र समवायसम्बन्धः तत्र बहुषु पदार्थेषु वर्तते इति दृष्टवन्तः तत्र यः समवायसम्बन्धः तत्र घट अपि कपालयोः मध्ये अस्ति सः भिन्नः अस्ति तत्र रूप अपि तत्र द्रव्यं तयोः मध्ये यः सम्बन्धः अस्ति तत्र द्वयमपि समवायः इति एव वदामः किमर्थम् इति प्रश्नः अस्ति तत्र अतः तत्र अन्तिमवाक्यं तत्र अस्ति तत्र कोऽपि पठति वा तत्र अस्तु सः पठितुमिच्छति तत्र अपि अग्रे लाघवम् इति तस्मिन् विषये तत्र कः पठितुमिच्छति अथवा का कः अथवा का पठितुमिच्छति अग्रे अस्तु एतत् कुर्मः तत्र अशोकमहोदय नमस्कारः तत्र भवान् एव तत्र अग्रे पठितुम् इच्छति वा
अस्तु महोदय
हा तत्र आश्रयाणाम् इति
तत्र आश्रयाणाम् आधेयानाञ्च नानात्वेपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते
नाम वयं पश्यामः तत्र आश्रयः आधेयः भिन्नाः सन्ति किन्तु लाघवात् लाघवार्थे वयं समवायः एकः एव इति वयं स्वीकुर्मः नाम तत्र भिन्नाः समवायाः सन्ति इति वक्तुमपि शक्नुमः किन्तु तद् मास्तु केवलं समवायः अस्ति इति स्वीकुर्मः लाघवात् इति इदानीं तत्र अग्रे भवति लाघव नाम किम् इति अस्तु अग्रे पठतु महोदय
लाघव कौरवस्वरूपं लाघवं नाम विचारसौकर्यम् एवं चिन्तयामः सो विचारं सुलभं भवति
तत्र तावत् तत्र अब्रवीत् पूर्णपरिच्छेदं पठतु एकवारं तदनन्तरम् एकमेकं वाक्यं स्वीकृत्य चिन्तयामः
अस्तु कश्चित् आपणं गन्तुं प्रवृत्तः तस्य माता तं प्रति अवदत् गुडं तण्डुलान् च आहार सः ओम् इत्युक्त्वा निर्गतः तदैव तस्य भार्या समागत्याः शर्करां शाकं सर्षपान् विद्युद्दीपं पुस्तिकां पेटिकां
अलम् अलम् अलं प्रभवामि इमानि सर्वाणि बुद्धौ स्थापयितुम् अतः सर्वं विलिख्य देहि इति भार्यां प्रति अब्रवीत्।
हा इति अस्तु इदानीं तावत् पर्यन्तं लाघवं नाम किं विचार सौकर्यम्
एतद् सैन्स् इन् सैन्स् पासिमनि प्रिन्सिपल्
तत्र तत्र अग्रे अत्र वर्गे केवलं संस्कृतेन वदामः महोदय।
अस्तु
किन्तु तत्र ओकेम् रेजर् इति अस्ति लाघवं
लाघवं विचारणं सुलभं
येन येन वयं सुलभरीत्या विचारं कर्तुं शक्नुमः अतः तत्र विचारसौकर्यम् एव लाघवम्। अतः उदाहरणं दीयते अत्र
एकः पुरुषः आपणं गच्छति
गन्तुं प्रवृत्तः आपणं गन्तुं
प्रवृत्तः आरम्भं करोति तस्य माता वदति किं किं क्रीणाति
आनयतु किं किम् आनयतु इति सा वदति तत्र गुडं
गुडं तण्डुलान्
तत्र च आहार चाहर नाम च आहार आहार नाम किं तत्र हर हर इति अस्ति चेत् तत्र स्वीकरोतु इति किन्तु आहार नाम आनयतु तत्र विपरीत अर्थः आहार तत्र नैयायिकानां बहुप्रियशब्दः अस्ति तत्र आधाय तत्र ददाति इति नाम ददाति आददाति नाम स्वीकरोति तत्र आधाय इति बहुवारं श्रूयते न्यायशास्त्रे तादृशं तत्र आहार आहरति नाम आनयतु आनयति इति अग्रे सः
सः आम् इति उक्त्वा गच्छति तदा तस्य भार्या शर्करां शाकां
अपि आगत्य आह आह नाम उब्र तत्र उक्तवती
सः न इति अलं
तत्र तत्र अनेकानि वस्तूनि सन्ति इति कृत्वा सः किम् उक्तवान् सर्वे विलिख्य सर्वं विलिख्य देहि तत्र सर्वे देहि तत्र सर्वं तत्र वयं मनसि स्थापयितुं न शक्नुमः अतः तत्र इति सः वदति अतः तत्र किम् अस्ति तत्र यदि वयं तत्र समवायः यः समवायः तत्र विशेष अपि नित्यद्रव्य तयोः मध्ये यः समवायः अस्ति सः भिन्नः अस्ति अपि घटत्वम् अपि घटे तयोः मध्ये यः समवायः भिन्नः अस्ति इति यदि वदामः तत्र किं भवति अनेके समवायाः भवन्ति अतः लाघवार्थम् एकः एव समवायः इति स्वीकुर्मः तेन पर्याप्तम् इति वक्तुमिच्छति तत्र मनुष्याः भिन्नाः एव किन्तु मनुष्य इति एक शब्देन तत्र समूहस्य तत्र वर्णनं कुर्मः तथैव तत्र समवायः इति एकः एव इति वदामः तेन लाघवं भवति सौकर्यं भवति इति एव तत्र वार्ता। अस्तु धन्यवादः महोदय। हा कोऽपि प्रश्नः अस्ति वा अस्मिन् विषये? अस्तु तत्र केवलं लाघवं नाम किम् इति उदाहरणेन उक्तम् अस्ति तावदेव। अस्तु अग्रे तत्र अन्य कोऽपि पठितुम् इच्छति वा? अस्तु तत्र नीता भगिनी पठितुम् इच्छति वा?
आमाचार्य
अग्रिमे पुटे
अत्र पश्यतु पूर्वं मात्रा द्वयमेव उक्तं तदा अङ्गीकृत्य प्रवृत्तः तदाहरणाय ततः भार्यया पञ्चशाः पदार्थाः उक्ताः तदा निवार्य भाषणात् विलिख्य देहीति वक्ति को हेतुः विचारे धारणे वा सौकर्यम् द्वित्राणां बुद्धौ स्थापने क्लेशः न भवति अनेकेषां स्थापने भवति इदमेव विचारसौकर्यं लाघवं इत्युच्यते तद्विपरीतम् असौकर्यं गौरवमित्युच्यते अत्र प्रथमतः तु माता केवलं गुडं तण्डुलान् इत्येव आनयतु इति उक्तवती अनन्तरं भार्या शर्करामपि शाकमपि अन्यानि वस्तूनि अपि अन्यानि वस्तूनि ध्वनिः श्रूयते वा
श्रूयते भगिनि श्रूयते
अन्यानि वस्तूनि वस्तूनां विषये अपि उक्तवती अनन्तरं सः लिखित्वा ददातु इति उक्तवान् अत्र किम् अभवत् केवलं द्वित्राणां पदार्थाणां विषये यदि भवति तत् मत्यां स्थापनीयं सुलभतया भवति किन्तु अत्र इदानीं बहूनि वस्तूनि सन्ति अतः सः विलिख्य देहि इति उक्तवान् तदर्थं तस्य हेतुः किमस्ति
हेतु नाम कारणं
हेतुः कारणं किमस्ति तत् विचारे धारणे वा सौकर्यं विचारे अस्ति वा धारणे अस्ति वा सौकर्यं भवेत् इति अस्ति कः हेतुः इति प्रश्नः अस्ति तत्
सः किमर्थम् एतद् उक्तवान् यतोहि तत्र यदि तत्र सर्वं तत्र विलिख्य तत्र सः ददाति तत्र किं भवति सौकर्यं भवति मनसि
सौकर्यं भवति सुलभता भवति स्थापनं सुलभतया भवति तथैव विचारसौकर्यं लाघवं लाघवं परिभाषा वा लाघवं शब्दस्य अत्र उपायोजना अस्ति
हा लाघवं नाम विचारसौकर्यम् अपि तस्य विपरीतार्थः अस्ति असौकर्यम् इत्युक्ते
क्लिष्टता
हा तदस्ति गौरवम् लाघवम् सारल्यं अर्थं लाघवं तत्र असौकर्यार्थं गौरवम् इति भवति गौरवम् समीचीनम्
गुरोः गौरवम् अस्ति किल
हा तद् भिन्नम् एतद् भिन्नम् अस्ति एतत् पारिभाषिकशब्दः इति चिन्तयतु तत्र लाघवं गौरवम् इति तत्र पारिभाषिकनाम टेक्निकल् टर्म् इति चिन्तयतु साधारणसंस्कृत्या भाषे तत्र यद्भवति भाषायां यद्भवति तद् भिन्नम् अस्ति तत्र गौरवम् आदरम् इति नास्ति अत्र गौरवं नाम तत्र असौकर्यम् इति
आचार्य अत्र लघुत्वं गुरुत्वम् इति नास्ति
तद्भिन्नमस्ति लाघवम् अपि गौरवम् इति
धारणसौकर्यम् इत्युक्ते किं भवान्
धारणसौकर्यं मनसि स्थापयितुं सुलभम् अस्ति अस्तु अतः तत्र लाघवं गौरवम् इति किमिति वयं दृष्टवन्तः अस्तु तत्र अग्रे तत्र केवलम् एकमेव तत्र वाक्यम् अस्ति तत्र कः पठति अस्तु तत्र नरसिंहमहोदय अग्रे पठति वा तत्र हा नरसिंहमहोदय भवान् एव अग्रे पठति वा श्रूयते वा
श्रूयते
अस्तु नरसिंहमहोदय न श्रूयते महोदय नरसिंहमहोदय
अस्तु तत्र अन्य कोऽपि अस्तु सुबोध महोदय अग्रे पठति वा
प्रयत्नं करोमि
आं महोदय इदानीं पठामि 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 महोदय
अस्तु 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 तर्हि अस्तु
इदानीं श्रूयते वा महोदय
हा श्रूयते श्रूयते अस्तु पठतु महोदय
महोदय
हा श्रूयते महोदय श्रूयते
न श्रूयते वा महोदय
श्रूयते श्रूयते
इदानीं पठामि महोदय पठामि
अस्तु महोदय सम्यक्तया न श्रूयते महोदय सम्यक्तया न श्रूयते त्यजामः एकनिमिषः हा
एकमेव निमिषं महोदय
हा त्यजामि
पश्यतु पूर्व
अस्तु सुबोध महोदय भवान् एव तत्र अग्रे पठतु महोदय
पूर्वं मात्रा द्वयमपि पञ्चः पदार्थाः उक्ताः तदा आम्
हा एकनिमिषं महोदय तत्र सुबोध महोदय भवान् वदतु इदानीं
कुत्र
तथा च
आश्रयाणाम् आधेयानां च अनेकत्वेन समवायास्यापि अनेकत्वस्वीकारे गौरवमिति लाघवाय विचारसौकर्या एव एक एव समवायः इत्यङ्गी क्रियते
हा इति अतः तत्र केवलं लाघवार्थं तत्र सारल्यार्थं तत्र अनेके तत्र समवायः सन्ति इति मास्तु एकमेव एकः एव समवायः अस्ति इति वयम् अङ्गीकुर्मः इति तावदेव अस्ति अस्तु अतः तत्र समवायः तत्र समवायस्य आश्रयाः तत्र अनेके सन्ति किन्तु एकः एव समवायः इति वयं चिन्तयामः इति एव अस्ति अस्तु तावदेव अस्ति अद्यतनविषयः अतः तत्र समवायः कः इति अस्माभिः अद्य ज्ञातः अस्तु तर्हि विरमाम तत्र यदि प्रश्नाः सन्ति चेत् तत्र निमिषद्वयं निमिषचतुष्टयं यावत् किञ्चित् चर्चयामः नो चेत् तत्र विरमाम तत्र ध्वनिमुद्रणं तत्र स्थगयामि सर्वेभ्यो नमः
महोदय नमस्कारः